ॐ नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। सूत उवाच, निशम्य कौशारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम्। प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे। विदुर उवाच, केते प्रचेतसो नाम कस्यापत्यानि सुव्रत, कस्यान्ववाये प्रख्याताः, कुत्र वा सत्रमासत। मन्ये महाभागवतं नारदं देवदर्शनं, येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः। स्वधर्मशीलैः पुरुषैर्भगवान् यज्ञपूरुषः, यज्यमानो भक्तिमता नारदे नेरितः किल। यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः, मह्यं शुश्रूषवे ब्रह्मन् काठिन्येनाचष्टुमर्हसि। मैत्रेय उवाच, ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम्, सार्वभौमश्रियं नैच्छदधिराजासनं पितुः। स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः, तदर्शलोके विततमात्मानं लोकमात्मनि। आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमितविग्रहम्, अवबोधरसैकात्म्यमानन्दमनुसन्ततम्। अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः, स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत। ददान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः, लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः। मत्वा तं जडमुन्मत्तं कुलवृद्धा समन्त्रिणः, वत्सरं भूपतिं चक्रुर्यवीयांसं ब्रह्मेसुतम्। स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत सदात्मजान्, पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम्। पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः, प्रातर्मध्यं दिनं सायमिति यासन् प्रभासुताः। प्रदोषो निषिथो व्युष्ट इति दोषासुतास्त्रयः, व्युष्टसुतं पुष्करिण्यां सर्वतेजसमादधे। स चक्षुसुतमाकूत्यां पत्न्यां मनुमवापः, मनोरसूतमहिषी विरजान्नद्वलासुतान्। पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम्, अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम्। उल्मुको जनयत्पुत्रान् पुष्करिण्यां सरुत्तमान्, अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम्। सुनीथाङ्गस्य या पत्नी सुषुवेवेनमुल्बणम्, यद्दौ शील्यात् स राजर्षिर्निर्विण्णो निरगात् पुरात्। यमङ्गसेपुः कुपिता वाग्वज्रामुनयः किल, गतासोऽस्तस्य भूयस्ते ममन्थुर्दक्षिणम् करम्। अराजके तदा लोके दस्युभिः पीडिताः प्रजाः। जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः। विदुर उवाच, तस्य शीलनिधे साधोर्ब्रह्मण्यस्य महात्मनः, राज्ञः कथमभूद्दुष्टा प्रजा यद्विमनाययौ, किं वां होवेन उद्दिश्य ब्रह्मदण्डमयूयुजन्। दण्डव्रतधरे राज्ञी मुनयो धर्मकोविदाः, नावध्येयः प्रजापालः प्रजाभिरघवानपि, यदसौ लोकपालानां बिभर्त्यौजः स्वतेजसा। एतदाख्यायि मे ब्रह्मन् सुनीथात्मजचेष्टितम्, श्रद्धधानाय भक्ताय त्वं परावरवित्तमः। मैत्रेय उवाच, अङ्गोऽश्वमेधं राजर्षि राजहारमहाक्रतुं, नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः। तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः, हवींषि हूयमानानि न ते गृह्णन्ति देवताः। राजन् हवींषि दुष्टानि श्रद्धया साधितानि ते, छन्दांस्य यातयामानि योजितानि धृतव्रतैः। न विदामेह देवानां हेलनं वयमण्वपि, यन्न गृह्णन्ति भागान् स्वान् ये देवा कर्मसाक्षिणः। मैत्रेय उवाच, अङ्गो द्विजवचः श्रुत्वा यजमानस्सु दुर्मनाः, तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया। नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह, सदसस्पतयो ब्रूत किमवद्यं मया कृतम्। सदसस्पतय ऊचुः, नरदेवेह भवतो नाघं तावन्मनाक्षितम्, अस्त्येकं प्राक्तनमघं यदि हे दृक्त्वमप्रजः। तथा साधय भद्रं ते आत्मानं सुप्रजं नृप, इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक्। तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः, यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः। तांस्तान् कामान् हरिर्दद्याद् यान् यान् कामयते जनः, आराधितो तथैवैष यथा पुंसां फलोदयः। इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये, पुरोडासं निरवपन् शिपिविष्टाय विष्णवे। तस्मात् पुरुष उत्तस्थौ हेममाल्यमलाम्बरः, हिरण्मयेन पात्रेण सिद्धमादाय पायसम्। स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदारधीः। सा तत्पुंसवनम् राज्ञी प्राश्य वै पत्युरादधे गर्भम् काल उपावृत्ते कुमारम् सुषुवे प्रजा। स बाल एव पुरुषो मातामहमनुव्रतः अधर्मान् शोद्भवम् मृत्युम् तेनाभवद् धार्मिकः। स शरासनमुद्यम्य मृगयुर्वनगोचरः हन्त्य साधुर्मृगान् दीनान् वेनो सावित्यरौज्जनः। आक्रीडे क्रीडतो बालान् वयस्यानति दारुणः प्रसय निरनुक्रोशः पशुमारममारयत्। तम् विचक्ष्य खलम् पुत्रम् शासनैर्विविधैर्नृपः यदा न शासितुम् कल्पो भृतमासीत् सुदुर्बनाः। प्रायेणाभ्यर्चितो देवो ये प्रजा गृहमेधिनः कदपत्यभृतम् दुःखम् ये न विन्दन्ति दुर्भरम्। यतः पापीयसि कीर्तिरधर्मस्य महान् ऋणाम् यतो विरोधः सर्वेषाम् यताधिरनन्तकः। कष्टम् प्रजापदेशम् वै मोहबन्धनमात्मनः पण्डितो बहुमन्येत यदर्थाः क्लेशदा गृहाः। कदपत्यम् वरम् मन्ये सदपत्याच्छुचाम् पदात् निर्विद्येत गृहान् मर्त्यो यत्क्लेशनिवहा गृहाः। एवम् स निर्विण्णमनान् रिपो गृहान् निशीथ उत्थाय महोदयोदयात्। अलब्धनिद्रोऽनुपलक्षितो नृभिर्हित्वा गतो वेन सुवम् प्रसुप्ताम्। विज्ञाय निर्विद्य गतम् पतिम् प्रजाः पुरोहितामात्यसुहृद्गणादयः। विजिक्युरुर्व्यामतिशोककातरा यथा निगूढम् पुरुषम् कुयोगिनः। अलक्षयन्तः पदवीम् प्रजापतेर्हतोद्यमः प्रत्युपसृत्यते पुरीम्। ऋषीन् समेतानभिवन्द्य साश्रवो न्यवेदयन् पौरवभर्तृविप्लवम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे त्रयोदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।